कृपापरं सुरद्विषन्निकन्दनं नमामि गोपनन्दनम् मया सदैव गीयतां तथा कृपा विधीयतां
प्रामाणिकाष्टकद्वयं जपत्यधीत्य यः पुमान्
भवेत् स नन्दनन्दने भवे भवे सुभक्तिमान् भवेत् स नन्दनन्दने भवे भवे सुभक्तिमान् भवेत् स
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन मा कर्मफलहेतुर्भुर्मा ते सङ्गोऽस्त्वकर्मणि कर्मणः शरीरयात्रापि च ते न प्रसिद्ध्येद कर्मणः
युगे
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति तदहं भक्त्युपरतम् अश्नामि प्रयतात्मनः।